समिद्धोऽज्ञमनुषो दुरो मे देवो देवाम्यजसि जातवेदः आधवः मित्रमहस्ति कृत्वा त्वम् दूतः कविरसि प्रचेताः नो नवात्पथरितस्य जानान्मध्वा समञ्जम् स्वदया शुचिह्वा मन्मानि जीभिहृतयज्ञवृन्दम् देवत्रा च गृणह्यध्वरम् नाः आजुह्वा नयेज्यो वञ्चश्चाजाह्यग्नेवसुभिस्सजोषाः त्वम् देवानामसि जह्वभो दासयेनान्यक्षैषितो यजीयान् प्राचीनम् परिः प्रदिशा पृथिव्यामस्तो रस्यावृज्यते अग्रे अह्ना यो प्रथते विदरम् वरीयो देवेभ्यो अधीतये स्योनम् यजस्वतीरुर्भिया विश्रयन्ताम् पतिभ्यो न जनयः शुम्भमानाः देवीर्द्वारो बृहतीर्विश्वमिन्द्रा देवेभ्यो भवत सुप्रायणाः आश्रयन्ति यजते उपाके उषासा नक्ता सततां नियो नौ दिव्ये योषणे बृहती सुरुक्मे अधिश्रियम् शुक्रभिषम् दधाने दैव्याहोतारा प्रथमा सुवाचामिमाना यज्ञम् मनुषो यजध्यै रथोदयम् ताभिदधे सुकारो प्राचीनम् ज्योतिःप्रदिशा दिशन्ता आनो यज्ञम् भारती तूय मे त्रिरामनुष्वधिगचेतयन्ति तिस्रो देवेर्भरिरेतम् श्रोलन्दरस्वधी स्वपसन्तु हिमेद्या वा पृथिवीजमित्रीरूपैरमिम् सद्भुवनानि विश्वा समद्यो दर्शितो यजीयान् देवम् त्वष्टारविहयक्षि विद्वान् उपावसुजत्मन्या समञ्जम् देवानाम् पाथऋतुता हवींषि वनस्पतिः समिता देवो अग्निस्वदन्तु हव्यम् मधूना घृतेन सद्यो जातोऽव्यनीतयज्ञमग्निर्देवानामभवत्पुरोगाः अस्य होदः प्रतिश्रुतस्य वाचिस्वाहा कृतम् हविरदन्तु देवाः